इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। विदेशमन्त्री एस जयशंकरः प्रत्यपादयत् यत् पूर्वोत्तर भारतस्य कालान्तरे प्रासंगिकता वर्धिता भविष्यति, यतोहि असौ वैदेशिकैः दूतैः अस्य क्षेत्रस्य परिचयं कर्तुं स्वप्रशासनेन उद्योगैः च सह तस्य क्षेत्रस्य गुणानाम् आदान प्रदानं कर्तुं च आग्रहं कृतवान्। आगामिने पूर्वोत्तर निवेशक शिखर सम्मेलनाय 25,000+ राजदूतानाम् एकम् उपवेशनम् आभासीय माध्यमेन सम्बोधयन् डॉ जयशंकरः प्रोक्तवान् यत् पूर्वोत्तर क्षेत्राणि नैकासाम् भारतीय नीतीनाम् केन्द्रस्थाने सन्ति इति। असौ अग्रे अवोचत् यत् पूर्वोत्तर क्षेत्रम् अस्माकं 5 देशीनां भूमौ स्पृष्टमस्ति, एतस्य च सीमाः भारतीयोपमहाद्वीपासियान इत्यनयोः मध्ये माध्यमस्वरूपाः सन्ति इति। रक्षासचिवः राजेशकुमारसिंहः भारत इटली सामरिक सहभागित्वस्य प्रमुखस्तम्भरूपेण द्वैपाक्षिकं रक्षासहयोगं वर्धयितुं रोम नगरे इटली देशीयेन रक्षामन्त्रिणा ग्विडो क्रोसेट्टो इत्येतेन सह मिलितवान्। अयं हि स्वकीयया इटली देशीयया सहभागिन्या लुइसा रिकार्डी इत्यनया सह 11 भारत इटली देशयोः वार्षिक द्विपक्षीय संयुक्त रक्षा समित्याः उपवेशनस्य सहाध्यक्षताम् अपि निभालितवान्। उभौ नेतारौ भारत इटली देशयोः मध्ये सागरीय सहयोगं सूचना दान प्रदान व्यवस्थां समेत्य रक्षा सुरक्षौद्योगिक सहयोगस्य अनेकेषु विषयेषु चर्चां द्वयोः दिनयोः इटली देशस्य एषः मन्त्री यात्रारतो अस्ति इति। प्रवर्तन निदेशालयेन दिल्ल्याः राउज एवेन्यू न्यायालये नेशनल हेराल्ड पत्रिकया सम्बद्धे धनशोधन प्रकरणे कांग्रेस नेत्रोः सोनिया गांधी राहुल गांधी इत्यनयोः विरुद्धं आरोपपत्रं प्रस्तुतम्। एतस्मिन् आरोपपत्रे कांग्रेस दलस्य विदेश प्रमुखः सैम पित्रोदाः सुमन दुबेः च अन्ये च सम्मिलिताः विद्यन्ते। विशिष्ट न्यायाधीशेन विशाल गोगने इत्यमुना प्रकरणस्य आगामि श्रवणम् अस्य मासस्य 25 निर्धारितं कृतमस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना डेन्मार्क देशस्य समकक्षीयेण मेट्टे फ्रेडरिक्सन इत्यनेन सह वार्तालापः कृतः। दूरभाष वार्तालापावधौ उभौ नेतारौ भारत डेन्मार्क देशयोः हरित सामरिक सहभागित्वाय दृढ समर्थनं पुनः दृढीकृतवन्तौ। उभयोः देशयोः जनानां हिताय विविध क्षेत्रेषु सहभागं वर्धयितुं च चर्चां कृतवन्तौ। 25,000+ हरित सामरिक सहभागित्वस्य आरम्भानन्तरम् उभयोः देशयोः मध्ये उच्चस्तरीयादान प्रदानस्य स्मरणं कुर्वन्तौ उभौ नेतारौ हरित संक्रमणे योगदानार्थं विविधक्षेत्रेषु सहभागित्वस्य विस्तारस्य विषये अवधानं दत्तवन्तौ। पेट्रोलियम प्राकृतिक वायु मन्त्रालयेन ओपन एकरेज लाइसेंसिंग पॉलिसी बिड राउंड 9 इत्येतस्य अन्तर्गतं 37,000+ वर्ग किलोमीटर परिमाणाधिक क्षेत्रस्य 28 खण्डानाम् आवंटनं कृतमस्ति। अस्य महत्वं प्रकाशयन् प्राकृतिक वायु मन्त्री हरदीप सिंह पुरी अवदत् यत् एतेन हि भारतस्य अप्रयुक्तां ऊर्जा क्षमतां प्राप्तुं आयातावलम्बनं न्यूनीकर्तुं च सहाय्यं भविष्यतीति। आईपीएल इत्येतस्यां 20-20 क्रिकेट स्पर्धा मालिकायां कोलकाता नाइट राइडर्स दलं गतरात्रौ चंडीगढ़नगरस्य महाराजा यादवेन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पंजाब किंग्स दलेन 16 पराभूतम्। अद्य नवदिल्ल्यां अरुण जेटली क्रीडांगणे डेल्ही कैपिटल्स राजस्थान रॉयल्स दलयोर्मध्ये स्पर्धा निर्धारितास्ति। प्रतिस्पर्धायाः प्रसारणं 7:30 भविष्यति। इति वार्ताः।